एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सिन्धुपाल्चोक जनपदस्य मेलन्ची पाँचपोखर स्थानयोः दुरापन्नेन भूस्खलनेन मृतानां दशानामेव जनानां सत्यापनं सम्भूतं वर्तते। रविवासरस्य रात्रौ दुरापन्नेन भूस्खलनेन मेलन्ची स्थाने अष्ट पाँचपोखर स्थाने दौ च जनाः मृता इति मेलन्ची स्थानीय प्रहरी कार्यालयस्य प्रहरी निरीक्षक फलबहादुर तामाङ अज्ञापयत। रविवासरस्य रात्रौ दुरापन्नेन भूस्खलनेन पाँचपोखरी ग्रामपालिकायाः प्रथम द्वितीय तृतीय षष्ठ सप्तमाष्टम वडा क्षेत्रेषु महती क्षतिः प्रापिता वर्तते। जल विप्लव निमज्जनयोर्निपत्य कैलाली जनपदस्य भजन नगरपालिकायां जानकी ग्रामपालिकायां च सहस्रद्वयं शतद्वयं च गृहपरिवाराः विस्थापिताः सन्ति। भजनी नगरपालिकायां सहस्रं षट्शतं च जानकी ग्रामपालिकायां षट् परिवाराश्च विस्थापिताः सन्तीति स्थानीय विपद व्यवस्थापन समित्या ज्ञापितं वर्तते। भजनी नगरपालिकायाः प्रमुख शेरबहादुर चौधरी विस्थापिताः परिवाराः सम्प्रति विद्यालयेषु मुख्यमार्गे च स्थिताः सन्तीति अज्ञापयत। बागलुङ जनपदस्य पश्चिम निशी खोला स्थाने ढोरपाटन क्षेत्रे च भूस्खलनस्य कारणेन त्रयोदश गृहपरिवाराः विस्थापिताः सन्ति। एवमेव जल विप्लव भूस्खलनयोः कारणेन तनहु जनपदे शतं षट्पञ्चाशत् च गृहपरिवाराः विस्थापिताः सन्ति। जनपदस्य म्याग्दे ग्रामपालिकायां अशीतिः बन्दीपुर ग्रामपालिकायां षोडश शुक्ला गण्डकी नगरपालिकायां त्रयोदश आबु खैरेनी ग्रामपालिकायां सप्त च गृहपरिवाराः विस्थापिताः सन्ति। नेपाले गतदिने अतिरिक्तेषु शतचतुष्टये अष्टादशसु च जनेषु कोरोना विषाणोः संक्रमणं पुष्टिभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य ह्यस्तने नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः देशस्य विभिन्नासु प्रयोगशालासु विहिते परीक्षणे शतचतुष्टये अष्टादशसु च जनेषु कोरोना संक्रमणं पुष्टिभूतमस्तीति अज्ञापयत्। एतदनुसारेण नेपाले संक्रान्तानां जनानां समग्र संख्या विंशति सहस्राणि सप्तशतं पञ्चाशत् च प्राप्तास्ति। एवमेव गतदिने अतिरिक्ताः शतत्रयम् अष्टापञ्चाशत् च जनाः कोरोना संक्रमणात् मुक्ताः सन्तो गृहं प्रत्यावृताः सन्ति। मन्त्रालयस्य अनुसारेण सम्प्रति आराष्ट्रं कोरोना विषाणुना संक्रान्ताः पञ्चसहस्राणि सप्तशतं द्वात्रिंशत् च जनाः विभिन्नेषु चिकित्सालयेषु उपचारस्य क्रमे वर्तन्ते। जनप्रतिनिधौ कर्मचारी सूचा कोरोना संक्रमणस्य पुष्टिमनु नेपाल गंजुप महानगरपालिकायाः कार्यालयः पूर्णरूपेण परिपिधापितोऽस्ति। नेपाल गंजुप महानगरपालिकायाः वडाध्यक्षे वडा कार्यालयस्य सप्तसु कर्मचारी सूचा कोरोना संक्रमणस्य पुष्टे पश्चात् अपर सूचनायाः अप्रकाशनं यावत् कार्यालयः पूर्णरूपेण परिपिधापितोऽस्तीति प्रमुख प्रशासकीयाधिकृतः ओम बहादुर खड्का अज्ञापयत्। कोरोना संक्रमणस्य संकटस्य वर्धनमनु बझाङ जनपदे वडा क्षेत्रद्वयम् एको ग्रामश्च परिपिधापिताः सन्ति। केदारस्यु ग्रामपालिकायाः षष्ठम सप्तमं च वडा क्षेत्रे थलारा ग्रामपालिकायाः पञ्चम वडा क्षेत्रस्य दुवाली ग्रामश्च पूर्णरूपेण परिपिधापिताः वर्तन्ते। केदारस्यु ग्रामपालिकायाः षष्ठे सप्तमे च वडा क्षेत्रयो एव षट्षष्ट्यां दुवाली ग्रामे दशसु च जनेषु कोरोना पुष्टेः अनन्तरं कोरोना संक्रमण निरोधन नियन्त्रण समन्वय समितेः उपवेशेन वडा क्षेत्रद्वयं दुवाली ग्रामश्च परिपिधापिताः सन्ति। वीरगंज स्थानस्य नारायणी चिकित्सालयस्य प्रयोगशालायां विहिते पीसीआर परीक्षणे सप्तत्यां जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। वीरगंज नगरे चतुर्षु सुरक्षाकर्मीषु द्वादशसु महिलासु एकेन भारतीयेन च सह सप्तत्यां जनेषु कोरोना संक्रमणं पुष्टिभूतमिति नारायणी चिकित्सालयस्य चिकित्सालय सुपरिवीक्षकः डा मदन उपाध्यायः अबोधयत्। सप्तरी जनपदे कोरोना संक्रान्तानां जनानां संख्याया क्रमेण वर्धनम् अनु अद्य प्रातः पञ्चवादनात् निषेधाज्ञा क्रियान्विता वर्तते। गतदिने उपविष्टेन जनपद सुरक्षा समितेः उपवेशेन कोरोना विषाणो समुदायस्तरे प्रसरणस्य सम्भावना क्रमेण वर्धितेति हेतोः अद्य प्रातः पञ्चवादनात् अस्यैव श्रावणस्य षड्विंशं दिवसं यावत् निषेधाज्ञां क्रियान्वेतुं निर्णीतमिति प्रमुख जनपदाधिकारी शंकर हरि आचार्यः अज्ञापयत्। सर्वकारेण निवेशन समितेः प्रमुख कार्यकारीअधिकृते सुशील भट्टः नियुक्तो वर्तते। मन्त्रिपरिषदः गतदिने उपविष्टेन उपवेशेन राष्ट्रिय योजनायोगस्य सदस्यश्च भट्टः समितेः प्रमुखपदे नियुक्तोऽस्ति। समितेः अध्यक्षपदे प्रधानमन्त्रिणः संस्थितिर्व्यवस्था वर्तते। मन्त्रिपरिषदः एकस्य सदस्यस्य अनुसारेण आगामिने वर्षचतुष्टयाय समितेः प्रमुखकार्यकारीअधिकृते भट्टः नियुक्तो वर्तते। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपराध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य च मध्ये प्रधानमन्त्री निवासे बालवाटार स्थाने ह्योपि विमृष्टम्। विमर्शने दलस्य वरिष्ठ नेता झलनाथ खनालः नेकपा संसदीय दलस्य उपनेता सुभाष नेवाङ च सहभागिनो आस्ताम्। अध्यक्षद्वयस्य मध्ये विहितं ह्यस्तनं विमर्शनमपि परह्य दिनस्यैव निरन्तरता स्थिति उक्तं वर्तते। अद्य काष्ठमण्डपोपत्यकायां राष्ट्रस्य विभिन्न भागेषु च गाईजात्रेति पारम्परिकं गोयात्रा सांस्कृतिक पर्व समायोज्यते। अद्य प्रारभ्य अष्टौ दिवसान् यावत् समायोजनीये अस्मिन् उत्सवे वर्षस्य अभ्यन्तरे मृतानां पारिवारिक सदस्यानां स्मृतौ जनाः प्रतीकात्मक रूपेण नरं गां वा विभूष्य नगरं परिभ्रामयन्ति। स्वं गोस्वरूपेण प्रस्तुत्य नगरे परिभ्रमिते सति वैतरणीं तर्तुं शक्यते इति धार्मिक पृष्ठभूमेः आधारः अत्र प्रथितोऽस्ति। अस्मिन् अवसरे फलपुष्प दधि चिपिटकान्नानि प्रदीयन्ते। राक्षस नृत्यं प्रदर्श्यते च। गोयात्रा महोत्सवे सम्प्रति सामाजिक कुरीतिभिः सह प्राशासनिक त्रुटिश्च लक्ष्यीकृत्य व्यङ्ग्यात्मक शैल्यां व्यक्तिसंघ संस्था सर्वकाराणाम् आलोचना प्रदानाः हास्यव्यङ्ग्य कार्यक्रमाश्च प्रस्तूयन्ते। इयं गोयात्रा काष्ठमण्डपोपत्यकायाः बैर भनेपा धुलीखेला भोजपुर दोलखा खोटाङ इलाम धरान धनकुटा विराटनगर वीरगंज प्रवृत्ति स्थानेष्वपि समायोज्यते। हेटौडा पोखरा पाल्पा डोटी प्रवृत्ति स्थानेषु च सांस्कृतिक पर्व रूपेण गोयात्रा आयोज्यते। अस्मिन् वर्षे कोरोना विषाणो प्रसरणस्य सम्भावनाम् आकलय्य सामाजिक दूर्या नियमं परिपाल्य एव पर्वेदं समायोज्यते इति समाचारः।